श्री गणेशाय नमः। ॐ अस्य श्री शिवरक्षास्तोत्र मंत्रस्य याज्ञवल्क्य ऋषिः श्री सदाशिवो देवता अनुष्टुप छन्दः श्री सदाशिव प्रत्यर्थम् शिवरक्षास्तोत्र जपे विनियोगः।
चरितं देवदेवस्य महादेवस्य पावनम् अपारं परमोदारं चतुर्वर्गस्य साधनम् नायकोपेतम् पञ्चवक्त्रम् त्रिनेत्रकम् शिवम् ध्यात्वा दशभुजम् शिवरक्षाम् कठेन्द्रः गङ्गाधर शिरः पातु भागवर्धेन्दु शेखरः नयने मदनध्वंसी कर्णो सर्पविभूषणः जगत्पतिः जिह्वाङ्गादीश्वरः पातु कन्धरांशिकन्धरः श्रीकंसः पातु मे कंसम् कन्धौ विश्वधुरन्धरः ध्रुवम् भूभारसंहर्ता करौ पातु पिनाकधृत् शङ्करः पातु जठरम् गिरिजापतिः नाभिम् मृत्युञ्जयः पातु कटिम् व्याघ्रादिनाम्बरः षट्खणी पातु वीनाश शरणागतवत्सलः पुनर्महेश्वरः पातु जानुमी जगदीश्वरः जगत्कर्ता गुल्फौ पातु गणाधिपः चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः येषां शिवबलौ वेताम् रक्षां यः सुकृतिं पठे स भुक्त्वा सकलां कामान् शिवसायुज्यमाप्नुयात् शाचार्या त्रैलो येऽपि चरन्ति ये दुरादाशु पलायन्ते शिवनामाभिरक्षणात् अभयं करुणामेतम् कवचं पार्वतीपते भक्त्या विभर्ति यः कण्ठे तस्य पश्यं जगत्त्रयम् इमां नारायणः स्वप्ने शिवरक्षां यथाविशत् प्रातरुत्थाय योगिन्द्रो याज्ञवल्क्यस्तथा लिखत्
इति श्री याज्ञवल्क्य प्रोक्तम् शिवरक्षास्तोत्रम् सम्पूर्णम्।